शुद्ध द्रव्य निरूपणार्पित मतेस्तत्त्वं समोत्पश्यतो नैकद्रव्यगतं च कास्ति किमपि द्रव्यान्तरं जातु चित् ज्ञानं ज्ञेयमवैति यत्तु तदयं शुद्धस्वभावोदयः किं द्रव्यान्तरचुम्बनाकुलधियस्तत्त्वाच्यवन्ते जनाः।